हो सके। धन्यवाद। सारस्वत अतिथि के रूम में हमारे मध्य में है
लखनऊ परिसर से आए हुए प्रोफेसर मदन मोहन
भास्कर उदय पत्रिका का भी प्रकाशन इनके मार्गदर्शन में प्रधान संपादक हैं। निवेदन करता हूं कि आप आशीर्वाद वचनों से
ब्रह्मा येन कुलाल यन्नियमतो ब्रह्मांड भांडोदरे विष्णो येन दशावतार ग्रहणे शिखरो महासंकटे रुद्रो येन कपाल पानीपुटके भिक्षाटनम कारितम सूर्यो भ्रम्यति नित्यमेव गगने तस्मै नमः कर्मणे। परम आदरणीयाः अस्य राष्ट्रीय संस्कृत संस्थानस्य भोपाल परिसरस्य प्राचार्याः ये अस्य कार्यक्रमस्य अध्यक्षत्वेन अत्र विराजिताः वर्तन्ते प्रोफेसर एम चंद्रशेखर महाशयाः अस्माकं मध्ये समुपस्थिताः वर्तन्ते अस्य प्रदेश शासनस्य यशस्विनः स्कूल शिक्षा मंत्रिणः आदरणीयाः श्रीमन्तः दीपक जोशी महाशयाः अस्माकं मध्ये विलसन्ति महर्षि पतंजलि संस्कृत संस्थानस्य निदेशकाः श्रीमन्तः प्रभातराज तिवारी महाशयाः अस्य कार्यक्रमस्य समन्वयकाः दैवज्ञ श्रोमणयः आचार्याः हंसधर झा महाशयाः अत्र सभांगणे विलसन्तः सन्ति परम वैयाकरणाः आचार्याः सुबोध शर्माणः एवं अत्रत्याः समीपि आचार्याः अत्रत्याः छात्राः अनुसंधातारः प्रकोष्ठेस्मिन् समवेताः मीडिया बांधवाः मध्यप्रदेशस्य सुदूरात् समागताः ज्योतिषशास्त्रस्य प्रमाणिकाः आचार्याः जिज्ञासवः श्रोतारः भ्रातरो भगिन्यः परम प्रमोदस्य अयं विषयः वर्तते यत् मध्यप्रदेशस्य राजधान्यां अयं राष्ट्रीय संस्कृत संस्थानस्य परिसरः विलसति अत्रापि अस्मिन् भोपाल नगरे महर्षि पतंजलि संस्कृत संस्थानमपि वर्तते इति अस्माभिः अनेन कार्यक्रमेण ज्ञातं यतः तस्यापि संस्थानस्य संस्कृतं प्रति अभिरुचिः वर्तते संस्कृत संस्था संस्कृतस्य संवर्धनार्थं प्रचार प्रसार निमित्तं मध्यप्रदेश शासनद्वारा तादृशं संस्कृत संस्थानम् अत्र प्रचलति इदमस्ति अस्माकं समेषां प्रसन्नतायाः अयं विषयः द्विदिवसीया इयं ज्योतिष कार्यशाला अत्र द्वयोः तत्वावधानेन अत्र सञ्जातम् अस्याः कार्यशालायाः इदानीम् अहं तु समापनसत्रं न वच्मि अहं तु वच्मि इदं सत्रं सम्पूर्तिसत्रं वर्तते समापन कहने मात्र से लगता है जैसे कि अब कार्यक्रम का कुछ भी अवशेष नहीं है इसको सम्पूर्ति सत्र मैं समझता हूं और इदं सम्पूर्ति सत्रं द्वयोः संस्थानस्य मान्ययोः प्रशासकयोः तत्वावधानेन एवं भूतः कार्यक्रमः अत्र अनुष्ठितः समनुष्ठितः जातः अत्र बहुनाम आचार्यानां व्याख्यानं अस्माभिः श्रुतम्। अस्य कार्यक्रमस्य विषयः आसीत् ज्योतिषशास्त्रस्य वैज्ञानिकता समये प्रासंगिकता च। मान्यः अहं वशमे ज्योतिषशास्त्रं विज्ञानं किं पूर्णविज्ञानं न केवलं प्राचीनविज्ञानं अर्वाचीनविज्ञानमपि ज्योतिषशास्त्रं वर्तते इत्यस्य विषये नास्ति काचित् विप्रतिपत्तिः। ज्योतिषशास्त्रं पूर्णविज्ञानशास्त्रं वर्तते। कथं यतः ज्योतिषशास्त्रं कालशास्त्रम् अस्ति, ज्योतिषशास्त्रं विज्ञानशास्त्रं वर्तते, ज्योतिषशास्त्रं गणितशास्त्रं वर्तते। दो दो जोड़ने से चार ही होता है, सवा चार नहीं होता, पौने चार नहीं होता, अत्र संदेह एव नास्ति। अत्र वैज्ञानिकता विषये किमर्थं संदेह? अस्माभिः गणितं क्रियते, पंचांगस्य निर्माणं क्रियते, तत्र सूर्योदयस्य साधनं भवति, तस्मिन् साधने अस्माभिः लिख्यते अद्य भोपाल नगरे, लखनऊ नगरे वा देशस्य विभिन्नेषु नगरेषु स्थानेषु सूर्योदयः अस्मिन् काले भविष्यति, तस्मिन्नेव काले सूर्योदयः जायते। लिख्यते अस्माभिः वर्ष पूर्वं गणना कृत्वा ग्रहणं सूर्यग्रहणं चन्द्रग्रहणं अस्मिन् दिवसे एतस्मिन् काले एव भविष्यति, तस्मिन्नेव काले तद् ग्रहणं संजायते। जनपत्रस्य निर्माणं भवति, तस्मिन् निर्माणे बहुपूर्वं लिख्यते जन्मकाले एव पञ्चविंशति वर्षे वयसि अयं जातकः विवाहं करिष्यति, अयं जातकः अस्मिन् वृत्तौ नियुक्तो भविष्यति। अत्र ज्योतिषशास्त्रं पूर्णविज्ञानम् अस्ति इत्यत्र सन्देहः नास्ति। इदानीं प्रासंगिकता विषये अयं विषयः आगतः तत् इदानीम् अयम् इदं युगम् आधुनिकयुगं विद्यते, इदं खलु प्राचीनविज्ञानम्। अस्मिन् युगे अस्य शास्त्रस्य का वा प्रासङ्गिकता? मान्याः अहं निवेदयामि यत् ज्योतिषशास्त्रस्य कालशास्त्रस्य प्रासंगिकता तावत् कालपर्यन्तं स्थास्यति, न केवलं भारते अपि तु समग्रे विश्वे यावत् कालपर्यन्तम् अस्माकं साक्षिभूतौ सूर्यचन्द्रौ ग्रहक्षाः च वर्तन्ते तावत् कालपर्यन्तं ज्योतिषशास्त्रस्य प्रासंगिकता स्थास्यति। ज्योतिषशास्त्र की ऐसी बात नहीं है कि केवल यह वेदांग होने से वेदों में इसको चक्षु स्थान मिला है इसलिए ज्योतिषशास्त्र महत्वपूर्ण शास्त्र है, इसलिए इसकी प्रासंगिकता नहीं है। यह एक काल शास्त्र है और काल का ज्ञान, कहा गया कि कौन कौन से ऐसे पदार्थ हैं जिसका अहर्निश चिंतन करना चाहिए, उसने बताया हमारे शास्त्रकारों ने कह काल का निमित्राणी कह देश कौ व्ययागमौ कस्याहं काच मे शक्ति इति चिंत्यं भवर्भवत्। ये सारे पदार्थों का नाम बताया गया, उसमें कहा गया कि इन इन पदार्थों का, इन इन वस्तुओं का अहर्निश चिंतन होना चाहिए, और जो व्यक्ति इन इन पदार्थों का अहर्निश चिंतन करता है वह इस लोक में सफल होता है। सभी के माता पिता हाथ में कागज कलम अपने बच्चों को डालते हैं, विद्वान कोई कोई होता है, सभी के माता पिता चाहते हैं हमारा बाल बच्चा क्लास वन अधिकारी बने, अपने यश से सबको आलोकित करे, प्रतिष्ठा बढ़ाए, उसमें कोई कोई होता है। ऐसा संभव है, लेकिन चूंकि